अथ अरुणोपनिषत् इमानुकं भुवनाशेष धेय इन्द्रश्च विश्वे च देवाः यज्ञं च नस्त्वं च प्रजां च आदित्यैः इन्द्रः सशेष धातो आदित्यैः इन्द्रः सगणो मरुद्भिः अस्माकं भूत्सविता तनूनाम् आप्लवस्व प्रप्लवस्व आण्डीभवजमामुहुः सुखादेन सुखनिधनाम् प्रतिमुञ्चस्व स्वाम् पुरौ मरीचयः स्वाम् भुवाः ये शरीराण्यकल्पयन् ते देहं कल्पयन्तो मा च ते ख्या आस्मतीरिषतो उत्तिष्ठतमा स्वस्थ अग्निमिच्छध्वं भारताः राघ्नः सोमस्य तृप्ता सह सूर्येण सयुषो सशो सुवासुवासाः अष्टाचक्रा नवद्वारा देवानां पुरयोज्य तस्यां हिरण्मयः कोशः स्वर्गलोको ज्योतिषावृतः यो वैतां ब्रह्मणो वेद अमृतेनामृतां पुरीं तस्मै ए ब्रह्म च ब्रह्मा च आयुक्कीर्तिं प्रजां दधुः भिव्राजमानां हरिणीं व्यशेषा परिवृताम् पुरं हिरण्मयीं ब्रह्म विवेशा पराजिता पराङ्गेत्यज्यामयी पराङ्गेत्यनाशकी इह चामुत्र चान्वेति विद्वान् देवासुरानुभयान् यत्कुमारी मन्द्रयते यज्जोषिद्यत्पतिव्रता अरिष्टं यत्किञ्चत्क्रियते अग्निस्तदनुवेधते अस्रुता सस्रुता सश्च यज्वानो येष्व यज्विनः स्वर्यन्तो नाप्येक्षन्ते इन्द्रमग्निञ्च ये विदुः सिकता इव संयते रश्मिभिः समुदितारः अस्मालोकाद्मुष्माश्च ऋषिभिररात्तु पृश्निभिः ॐ शान्ति शान्ति शान्तिः।